सर्वेषां स्वागतं ध्येयमन्त्रेण आरम्भं कुर्मः अस्तु
आरम्भं कुर्मः वा भगिनि
आम् आम् आं करोतु
शुक्लां भरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये सरस्वती नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुर्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहैः ॐ शान्ति शान्ति शान्तिः
अस्तु रामो राजमणि सदा विद्यते
रामं रमेशं भजे रामेणा विहता निशाचर चमु रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे भो राम मामुत्तर ॐ श्री सीतारामचन्द्राभ्यां नमः
उत्तमं भगिनि
सारी भगिनि लिटिल् स्टार्टिङ्ग् ट्रबल्स्
No, no, no. You started correctly, Bhagini. So I just interrupted you.
No. no, no, no. It's good you start because then I can follow it easily. Thank you.
No, astra. Kopi patitam icchati va hastasya bahu sulabha eva.
Aham vadami.
Vadatu, Bhagini.
Hastasya bhushanam danam satyam kanthastha bhushanam shrotrasya bhushanam satram भूषणैः किं प्रयोजनम्
सम्यक् सुलभः एव खलु हस्तस्य आम् अन्य कोऽपि विवरणं पठति वा
दानं कण्ठस्य भूषणं सत्यवचनम् कर्णस्य भूषणं शास्त्रं शास्त्रश्रवणं यदि एतानि भूषणानि सन्ति तर्हि अन्येषां भूषणां का आवश्यकता
आवश्यकता अस्तु सो अत्र महोदय प्रश्नः वा श्रीनिवास महोदय
नो वी हैव डन दिस अर्लियर आई थॉट
Probably, probably. So, I'm just following the numbers from the Samskrita Bharati. So, they have given 31 for the month. And then after that, they have like 108. So, I just want to follow that. Tavatev.
Okay.
Okay.
Bhagini, you had done this long, long, long time ago when we first began. Beautiful Subhashitam, Bhagini. You had sent it on WhatsApp actually.
Okay.
And this is so simple, even at that stage, it was easy for us to understand. So beautiful, this one.
Satyam, satyam. So, atra hastasya bhushanam danam, dvayam jani maha, satyam kantasya bhushanam. So, it is a kantataha dvanihi agachati. Ataha kantasya bhushanam satyam. Sadhanataya kim vadamaha vachanam, vak. मुखं मुखस्य 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 भूषणं सत्यम् इति, परन्तु अत्र कण्ठः इति अस्ति, नास्ति चिन्ता. श्रोत्रस्य भूषणं शास्त्रं. श्रोत्रः इत्युक्ते कर्ण, कर्णस्य कार्यं श्रवणं. सो अतः कर्णस्य अन्य नाम अस्ति श्रोत्रः इति. श्रोता, श्रोता. श्रोत्रस्य भूषणं शास्त्रं. भूषणैः किं प्रयोजनम्? अहं बालानां पाठनसमये एतादृशं चित्रं दर्शयामि. हस्तस्य भूषणं दानं. हस्तस्य भूषणं कङ्कणानि न, परन्तु दानमेव भूषणम्. एवमेव सत्यं कण्ठस्य भूषणम् इत्युक्ते आभरणानि न, हारं न, सत्यवचनमेव एव भूषणम्. अन्य अस्ति श्रोत्रस्य भूषणं शास्त्रं. कर्णस्य भूषणम् एतादृश आभरणानि न, परन्तु शास्त्रं, शास्त्रं श्रवणं, शास्त्रस्य श्रवणमेव. भूषणैः किं प्रयोजनं? प्रयोजनं किमपि नास्ति. एतादृश दानं न कुर्मः, सत्यं न वदामः, शास्त्रं न शृणुमः चेत्, एतादृशानि भूषणानि वयं धरामः चेत् अपि किमपि प्रयोजनं नास्ति. किमर्थम् इत्युक्ते मनसि वयं वयं जानीमः वयं उत्तमजनाः न इति, अतः प्रयोजनं किमपि न भवति इति एव तात्पर्यम्. प्रश्नः अस्ति वा? अस्तु, न, धन्यवादः. सो अत्र किमर्थम् एतादृशगीतानि गायामः इत्युक्ते, अमृताभियानम् इत्युक्ते भारतदेशे अस्मिन् वर्षे एव पञ्चसप्ततितमवर्षः, पञ्च 75th इयर् आफ् स्वातन्त्रतायाः. सो अतः भारतदेशे अमृतमहोत्सवः इति आचरन्तः स्मः इदानीम् सो अत्र USA, केनडा, UK मध्ये अपि एतादृशं कुर्मः इति. सो अतः कार्यक्रमाः भवन्ति. एकः कार्यक्रमः अस्ति देशभक्तिगीतं, देशभक्तिगीतानि इति स्वीकृत्य वर्गः भवति. प्रतिमासं नूतनं गीतं बालानां प्रौढानामपि गातुं शक्नुवन्ति इति. सो अतः एव फेब्रवरि मासस्य गीतम् एतत् गीतम्. ओ, कुतः अस्ति? अस्तु, एकनिमिषम् अहं किम् अभवत् इति पश्यामि. ओ, नास्ति वा, एकनिमिषं तिष्ठन्तु. अस्तु, अभवत्, तत् दट् स्लैड् अभवत्. ओके, सो अत्र गीतं श्रुतवन्तः वा? एकवारं गायामः वा? कोऽपि गातुम् इच्छति वा? अस्तु,
प्रयत्नं करोमि. अस्तु, भवान्
प्रथमम्. अन्य कोऽपि उक्तवती, शारदा भगिनी वा, सविता भगिनी गायति भगिनि.
वयं सर्वेभ्यां गायामि वा?
न, गातुम् इच्छति चेत् गायतु भगिनि, सविता भगिनी गायतु. सो वयं किं कुर्मः इत्युक्ते, एकमेकं वाक्यं गायतु भगिनि, पद्यं. प्रथमं भवती गायतु, द्वितीयम् अन्य कोऽपि गायतु.
शक्तिसंवृतं युक्तिसंवृतं शक्तियुक्तिसंवृतं भवतु भारतम्.
शक्तिसंवृतं युक्तिसंवृतं, सर्वे गायन्तु. शक्तियुक्तिसंवृतं भवतु
सर्वे संवृतं युक्तिसहृतं शक्ति संवृतं भवतु
भारतम्
भारतं भवतु भारतम् भवतु भारतम्
अन्य कोऽपि गायति वा द्वितीयपद्यं
शस्त्रधारकं शास्त्रधारकं शस्त्रशास्त्रधारकं भवतु भारतम् भारतं भारतं भवतु भारतम्
भवतु भारतम् शस्त्रशास्त्रधारकं भवतु
भारतम् भवतु भारतम् भवतु भारतम्
वीति संस्कृतौ वीति संस्कृतौ वीति संस्कृतम् भवतु भारतम् वीति संस्कृतम् वीति संस्कृतम्
धर्मनैष्ठिकं कर्मनैष्ठिकं धर्मनैष्ठिकं कर्म धर्मनैष्ठिकं भवतु भारतम् भवतु भारतम् भक्तिसाधनम् मुक्तिसाधकम्
भारतं भवतु भारतं भारतं भारतं
भवतु भारतम्
भवतु भारतम्
भवतु भारतम् धन्यवादः सर्वे मिलित्वा गीतवन्तः वयम् अस्तु अग्रे सो अत्र कथा अस्ति क्षतचिह्नाङ्कितकुलालः क्षत इत्युक्ते ओके अस्तु सो एतदेव क्षतम् सो अत्र क्षतचिह्नः
पिक्चर् इस् टु स्माल् टु फिगर् औट् एनिथिङ्ग्
अस्तु अहम् एतत् करोमि एतत् अस्तु सो अत्र क्षतचिह्नाङ्कित इति अस्ति समस्तपदं समस्तपदम् इत्युक्ते पृथक् पृथक् वक्तुं शक्नुमः वयं क्षतस्य चिह्नेन अङ्कितः सो इत्युक्ते देर् वास् अ वोण्ड् परन्तु तत् गतं परन्तु चिह्नमेव अवशिष्टः सन्ति शतस्य चिह्नेन अङ्कितः अङ्कितः इत्युक्ते मार्क्ड् मार्क्ड् कुलालः कुलालः इत्युक्ते एषः एव कुलालः घटं निर्माति कुलालः कुलालस्य ललाटे एतादृशचिह्नः अस्ति अतः तादृशकुलालः इत्युक्ते विशेषणं कुलालस्य विशेषणम् एतत्
अस्तु कोऽपि पठित् अस्तु अहं वदामि. सविता भगिनी आरम्भं करोति वा कृपया.
आं भगिनि.
कस्मिंश्चित् ग्रामे कश्चन कुलालः वसति स्म. सः प्रतिदिनं घटान् करोति. कदाचित् कार्यमग्नं कुलालः अकस्मात् पार्श्वे स्थितस्य घटस्य उपरि एव पतितः. सः घटः भग्नः अभवत्. घटस्य एकेन खण्डेन कुलालस्य ललाटे महान् क्षतः जातः. रक्तश्रस्राव अपि जातः. अनन्तरम् औषधोपयोगेन क्षतः उपशान्तः जातः. परन्तु ललाटे क्षतचिह्नः तथैव स्थितम्. एकस्मिन् ग्रामे कश्चन कुलालः वसति. सः प्रतिदिनं घटान् करोति. एकदिने कार्यमग्ने कुलालः अकस्मात् पार्श्वे स्थितस्य घटस्य उपरि एव सः पतितः. घटस्य एकेन खण्डः कुलालस्य ललाटे एकं क्षतः जातः. रक्तस्राव अपि जातः. तदनन्तरं औषध उपचारेण क्षत उपशन्तः जातः. परन्तु ललाटे क्षतिचिह्नः तथैव स्थितम् आसीत्.
सम्यक्. सो अवगच्छन्ति खलु, सः प्रतिदिनं घटान् करोति. एकदिने सः कार्ये मग्नः. कार्यमग्नः इत्युक्ते किमपि न करोति, कार्यमेव करोति सः एकस्मिन् दिने. तदा किम् अभवत्? अधः पतितवान् सः. घटस्य उपरि पतितवान्. सो अत्र घटः भग्नः अभवत्. घटस्य खण्डः ललाटे महान् खण्डेन महान् क्षतः जातः. क्षततः रक्तः अपि स्रवति. परन्तु औषधस्य उपयोगं कृतवान्. औषध उपयोगेन क्षतः जातः. क्षतः उपशान्तः. गतः क्षतः गतः. परन्तु चिह्नं स्थितं. चिह्नं न गतं. चिह्नं तथा एव स्थितम्. अस्तु, श्रीनिवास महोदय.
आं भगिनि. कालान्तरे तस्मिन् देशे क्षामः आगतः. ग्रामस्था जनाः अन्यं देशं गतवन्तः. कुलालः अपि ग्रामं परित्यज्य अन्यं देशं गतवान्. तत्र कस्यापि महाराजस्य सेवकः अभवत्. महाराजः कुलालस्य ललाटे स्थितं क्षतिचिह्नः दृष्ट्वा चिन्तयित्वान् निश्चयेन एषः कश्चित् वीरपुरुषः स्यात्. भगिनी शोट् डन्ट् युद्धसमये एतस्य ललाटे एवं क्षातः जातः स्यात् इति. कालानन्तरे तस्मिन् देशे ओके कालानन्तरे ग्रामे वृष्टि न अभवत्. वृष्टि न अभवत्. ग्रामस्य जनाः ग्रामं त्यज्वा अन्यदेशं गतवन्तः कुलालः अपि गतवन्तः तत्र तस्मिन् राज्ये सेवकः अभवत् तस्मिन् राज्यस्य महाराजः कुलालस्य ललाटे शतिचिह्नं दृष्ट्वा चिन्तयन्तः ये वीरपुरुषः स्यात् कश्चिन् युद्धे एतस्य ललाटे एवं शातः जातः इति.
सम्यक् सम्यक्. अत्र किञ्चित् व्याकरणं वदामि. क्षामः आगतः इत्युक्ते शुष्कः, अनावृष्टिकारणात् तत् महोदय उक्तवान्. सो अत्र स्थ इति पदं ग्रामस्थ इत्युक्ते ग्रामे ये अस्ति, ग्रामे यः अस्ति, ग्रामस्थ इति वदामः चेत्. सो अत्र ग्रामस्थाः इति अस्ति, अत्र अतः ग्रामे ये स्थिताः, ग्रामे ये सन्ति, ते जनाः. सो अत्र स्थ इति पदमस्ति चेत् तत्र यः अस्ति सः इति अर्थे अस्ति. अस्तु, अन्य किम् अस्ति?
स्थाः मीन्स् आल् द पीपल्, दट्स् वाट् इट् दट्स् स्था सिग्निफैस् द.
हा या, स्थाः मीन्स् दोस् हू वेर् इन् द ग्राम, ग्रामे ये सन्ति ते जनाः. उदाहरणार्थं गृहस्थः इत्युक्ते गृहे सः अस्ति, अतः गृहस्थः, हौस् होल्डर् इति वदामः खलु, गृहस्थः.
ग्रामे सर्वे जनाः, ग्रामस्य सर्वे जनाः,
ग्रामे ये सन्ति ते जनाः, लैक् दट्, ग्रामे ये सन्ति ते ग्रामस्थाः. गृहस्थः इत्युक्ते गृहे यः अस्ति सः गृहस्थः. सो दट् इस् द डेफिनेशन् स्तः इति वदामः चेत्. कुलालः अपि प्रश्नः
वा, स्थितार्थं वसति, ग्रामे वसति जनः,
वसति अथवा सन्ति, इति अस्ति अस्ति. अस्तु, अन्य किम् अस्ति देशं? सो अत्र अपि इति पदं चित् चन इव अपि उपयोगं कर्तुं शक्नुमः. उदाहरणम् अत्र कस्यापि महाराजस्य सेवकः अभवत्, तत्र कस्यापि महाराज, कस्य महाराज, कस्यचित् महाराजस्य सेवकः, कस्यचन. सो अतः अपि इति पदं चित् चन इति स्थाने उपयोगं कर्तुं शक्नुमः. उदाहरणार्थम् अत्र पश्यन्तु, कश्चित् कश्चित् वीरपुरुषः स्यात् अथवा कश्चन वीरपुरुषः स्यात्. अपि इति उपयोगं कुर्मः चेत् कथं भवति? कस्यापि अत्र कश्चित् इति पदं कश्चित् इति अभवत्.
Sorry, Bhagini, I didn't get the question. Come again.
Kashyapi, then?
No, no, no. So, atra, so, prashna ka...
Kashyachit.
Kashyachit iti nasti, paranto atra kaha and chit. So, Angila Bhashan Vadami, so atra kaha and chit are there. If we replace the chit with api, how will it be?
Kashyapi.
Kopi.
Kopi. Kopi. Kopi. So instead of chit, we have to put api. Then it will become kaha api or kopi. Okay, so that is the point here. So atra api upyogam kartum shaknumaha, चित् अपि उपयोगं कर्तुं शक्नुमः, क्षण अपि. कश्चित् वीरपुरुषः, कोऽपि वीरपुरुषः स्यात्. सो इट्स् प्रिटि इण्ट्रेस्टिङ्ग्. सो अत्र पश्यन्तु, ललाटे स्थितं क्षतचिह्नं, और् वी केन् से ललाटस्थं क्षतचिह्नं. So the sta can be changed into pullinga, strilinga, napumsakalinga, ekavachanam, bahuvachanam, sarvam. Okay, so astu tavadeva. Okay, astu. Amba patitam icchati va? Amba,
adha saha kulalasya sammanam krutva स्वयम् अन्यान् राजपुत्रान् इव एतमपि आधारेण अपश्यत्. परन्तु अन्ये राजपुत्राः एतस्य विषये असूयां प्रकटयन्ति स्म. देशस्य महाराजा कुमारस्य सम्मानं कृतवान्. स्वयं
सम्माननम् इत्युक्ते किमपि दत्तवान् वा?
दत्तवान्,
किमपि दत्तवान् कुलालाय.
इव एतम् अपि आधारेण अपश्यत्. देशस्य राजपुत्रान् एव
एतत् दृष्ट्वा मनसि किम् अभवत्? असूया अभवत्. असूयां प्रकटयन्ति. असूयाम् इत्युक्ते किमर्थं तस्य कृते तस्मिन् एतादृश आदरं प्रकटयति राजा इति?
अन्ये राजा पुत्रः असूयो कुर्वन्ति.
असूया कुर्वन्ति. अस्तु, सो अत्र सो पर्याप्तम् अम्ब, धन्यवादः. सो अत्र कुलालस्य सम्माननं करोति राजा. किमर्थम् इत्युक्ते राजा अनुमानं, स्वयमेव अनुमानं करोति खलु. अनुमानं कृतवान् सः वीरपुत्रः इति, वीरपुरुषः इति आदरं प्रकटयति महाराजः.
महाराजस्य
अन्यान् राजपुत्र स्वयम्, अतः सः कुलालस्य सम्माननं कृत्वा, इत्युक्ते महाराजः कुलालस्य सम्माननं कृत्वा स्वयम् अन्यान् राजपुत्रान् इव, इत्युक्ते राजपुत्राः सन्ति, तस्य राजपुत्राः सन्ति, एषः अपि राजपुत्रः इव एतमपि आदरेण अपश्यत्. इत्युक्ते सः अपि मम पुत्रः इति, सः अपि मम पुत्रः राजपुत्रः इति आदरम् आदरेण पश्यत् अपश्यत् आदरं प्रकटयति. एतत् दृष्ट्वा अन्ये राजपुत्राः किं कृतवन्तः? असूयां प्रकटयन्ति. किमर्थं सः मम सहोदरः नास्ति, किमर्थम् एतादृश आदरः इति असूयां प्रकटयन्ति. अस्तु, धन्यवादः. सागरी भगिनी.
कदाचित् अन्यदेशस्य महाराजः एतस्य महाराजस्य उपरि आक्रमणं कृतवान्. तदा महाराजः चिन्तितवान्, मम आस्थाने नूतनवीरपुरुषः यः आगतः अस्ति तं युद्धार्थं प्रेषयिष्यामि, सः शत्रुराजं निश्चयेन जेष्यति इति. अन्य राज्यस्य महाराजः तत् राज्यम् उपरि आक्रमणं कृतवान्. तदा महाराज चिन्तितवान्, मम समीपे एक नूतन वीरपुरुषः आसीत्, तं प्रेषित्वा युद्धं कर्तुं वदामि इति चिन्तितवान्. एषः वीरपुरुषः निश्चयेन शत्रुराज्यं जेष्यति इति
जयं
प्राप्नोति इति
चिन्तितवान्. अस्तु, धन्यवादः. अत्र नूतनविषयः किमपि नास्ति. अन्यदेशस्य महाराजः आक्रमणं करोति कृतवान्. सः महाराजः चिन्तयति मम आस्थाने इत्युक्ते सभा इति, परन्तु आ इति योजयामः चेत् सर्वदा यत्र अस्ति तादृशम् इति. उदाहरणार्थं श्लोके अपि अस्ति खलु आजानुभाव, आ इति अस्ति चेत् अप् टु इति अर्थे, तत् पर्यन्तम् इति. आजानुबाहु, रामस्य बाहु इत्युक्ते हेण्ड् करम्. आजानुबा जानुपर्यन्तम् अस्ति, जानु इत्युक्ते नी. So the hand is up to the knee, very long iti. Ajanu bahu. Aratri iti vadamaha chet, ratri pratakala pariyantam. Purna ratri iti. Aratri, adinam, avasyam, etadisham. A iti asti chet. सर्वदा तत्र वसति, सर्वदा तत्र तस्त आस्थाने इत्युक्ते सर्वदा तत्र एव वसति, सन्ति इति. मम आस्थाने नूतनः आगतः, तं प्रेषयामि इति चिन्तयति.
भगिनि क्वश्चन्, डबल् नेगेटिव्? बिकास् ऐ रेड् समवेर् सत्यं असत्यम्, असत्यम् मीन्स् कम्प्लीट् ट्रूथ्.
नो नो, असत्यम् इस् टोटल् ट्रूत्, लैक् कम्प्लीट् ट्रूत्, कम्प्लीट् ट्रूत्, करेक्ट्. इट्स् नाट् लैक् दट् डबल् नेगेटिव्. नो, इट्स् नाट् डबल् नेगेटिव्.
ओके,
सत्यम् असत्यं नेगेटिव् सम्यक्, परन्तु असत्यम् इस् टोटल् ट्रूत्. या अ इस् लैक् कम्प्लीट् or up to iti. Astu, agree. Jai Sri Bhagini, Bhagu, Lagu Vakyam.
Aam Bhagini. Anantaram saha ekante kulalam prishtavan boho virapurusha kasmin yudhe bhavataha evam jataha क्षतः जातः इति.
सो अत्र एकान्ते एव नूतनपदं वदतु भगिनि. अनन्तरं
सः राजः कुलालं कुलालं पृष्टवान्. कुलालः भोः वीरपुरुषः कस्मिन् युद्धे तव क्षतः जातः इति प्रश्नं कृतवान्.
प्रश्नं कृतवान् उत्तरं ददातु इति. एकान्ते इत्युक्ते एकान्ते
इत्युक्ते
अन्य कोऽपि नास्ति पार्श्वे, केवलं महाराजः अस्ति अपि च कुलालः अस्ति, अन्य कोऽपि नास्ति तत्र. सम्यक् सम्यक् भगिनि. अस्तु अग्रे शारदा भगिनि.
तदा कुलालः उक्तवान्, महाराज अहं कश्चन कुलालः न, कश्चन कुलालः न तु वीरपुरुषः. मम ललाटे स्थितः क्षतः शस्त्रप्रहारेण न जातः, अपि तु घटस्य उपरि पतनेन जातः इति. कुलालः उक्तवान्, महाराजः अहं वीरपुरुषः न, कुलालः मम ललाटे क्षतः घटस्य उपरि पतनेन आगतः शस्त्रप्रहारेण न.
अस्तु प्रहरणम् इत्युक्ते शस्त्र आयुध विद वेपन् कोऽपि आयुधेन मां न प्रहरितवान् अहं युद्धं न कृतवान् इति सः वदति. अहं युद्धपुरुषः नास्ति, अहं वीरपुरुषः नास्ति, युद्धसमये मम क्षतः न आगतः.
प्रहारेण मीन्स् अटाक्
अटाक् विद वेपन् आयुधस्य प्रहारेण attacking with a weapon, I did not get it. I fell on a ghataha iti. I fell on a ghatam. Lata bhagini, agrima.
Aam bhagini. Tada raja uktavan, are durta bhavataha lalate sthitena chatasenhena aham vanchitaha. Astu, tadapi bhavantam na dandayami. भवान् शीघ्रमेव इतः गच्छतु. यदि भवान् कुलालः इति अन्ये राजपुत्राः जानन्ति तर्हि ते भवन्तम् उपहसिष्यन्ति मारयिष्यन्ति च. तत्पूर्वमेव इतः गच्छतु इति. यदा राजा पृष्टवान् तदा ललाट कुलालः सत्यम् उक्तवान्. अतः राजा उक्तवान् दूत इत्युक्ते किम्? अरे दूत
वञ्चकं करोति.
ओ वञ्चकं करोति. भवतः ललाटे स्थितेन क्षणसन्येन अहं वञ्चितः. अहं चिन्तितवान् ललाटस्य चिह्नं दृष्ट्वा एक वीरचिह्नः इति चिन्तितवान्. अहं वञ्चितः. अस्तु तदापि भवन्तं न दण्डयामि. अहं भवन्तं न दण्डयामि. शीघ्रमेव इतः गच्छतु. यदि मम अन्ये राजपुत्राः जानन्ति चेत् भवान् कुलालः एव राजपुत्र वीरपुरुषः न इति जानन्ति चेत् ते भवन्तम् उपहासं कुर्वन्ति मारयिष्यन्ति अपि. तत्पूर्वमेव इतः गच्छतु इति राजा उक्तवान्.
सत्यं. सो अत्र राजा कुपितः अभवत् खलु, कोपेन वति हे दूर्तः इत्युक्ते वञ्चकः, मां वञ्चितवान् भवान्. परन्तु सः न वञ्चितवान् खलु, महाराजः एव अनुमानं कृतवान् खलु.
आं भगिनि.
सः
किञ्चित् न उक्तवान्, अहं कुलालः न उक्तवान्, अहं वीरपुरुषः न उक्तवान्, राजा एव अनुमानं कृतवान्, चिह्नं दृष्ट्वा राजा एव अनुमानं कृतवान् यः वीरपुरुषः इति. कुलाहलः कोऽपि दोषं नास्ति,
दोषः न कृतवान् सः. सो अतः किमर्थं राजा तम् उक्तवान् गच्छतु गच्छतु इति?
राजकुमारः कुलालः दृष्ट्वा उपहासं करोति, मारयिष्यति इति राजा न इष्टवान्, अतः गच्छतु इति उक्तवान्.
गच्छतु इति उक्तवान्, परन्तु राज्ञः मनसि, महाराजस्य मनसि किम् अस्ति, साक्षात् किम् अस्ति? सः एव दोषं कृतवान्, तत् अन्ये पुरुषाः राजपुत्राः जानन्ति चेत् तस्य एव लज्जा खलु.
राजा दृष्ट्वा हसति
एव उपहसिष्यति इति सः जानाति इति अहं चिन्तयामि.
आं भगिनि,
लज्जितः कुलालः ततः धावितवान्. अन्य कोऽपि वक्तुम् इच्छन्ति वा? कापि
अत्र कुलालः कुम्भकारः अपि कुम्भकारः
कुम्भं करोति इति कुम्भकारः. अस्तु तर्हि अग्रे षष्ठी विभक्ति अत्रैव सह वयम् एतत् कुर्मः वा? एकम् स्वीकृत्य अस्तु. लता अभवत्, विष्णुमहोदय सेनापति इकारान्तपुल्लिङ्गपदं षष्ठी विभक्ति कथं भवति?
सेनापतिः सेनापत्योः सेनापतीनां
सेनापतेः पत्योः पतीनां, सम्यक्, पतेः पत्योः पतीनां. सम्यक् महोदय, धन्यवादः. निर्मला भगिनी,
इट् वोण्ट् बि सेनापत्युः भगिनि?
ओन्लि फार् या, दट्स् अ वेरि गुड् क्वश्चन् भगिनि, ऐ फर्गाट् टु एक्स्प्लेन्. ओन्लि फार् पति इट् इस् पत्युः.
पत्युः, ओके.
सो इफ् सम्थिङ्ग् इस् बिफोर् दट् इट् बिकम्स् लैक् अ इकारान्तपद, हरेः लैक् दट्. गुड् क्वश्चन्. उदाहरणार्थम् अत्र दिस् आल्सो ऐ फर्गाट् टु मेन्शन्. सो अत्र राजा इति अस्ति, राजः न राजा, परन्तु महाराज इति अस्ति चेत् महाराजः कुत्र अस्ति? महाराजः एतादृशपदम्. केवलं राजा इति अस्ति चेत् भिन्नरूपं भवति. राजन् इति मूलपदं, राजन् नकारान्तपदं. सो अतः राजा इति प्रथमाविभक्तिरूपं भवति, परन्तु महाराजः रामः इव साधारण अकारान्तपुल्लिङ्गपदं. महाराजः महाराजस्य एवं भवति, परन्तु केवलं राजा अस्ति चेत् षष्टिविभक्ति राज्ञः इति भवति. राज्ञः राज्ञः वचनम्, अत्र राज्ञः इति कुत्रापि नास्ति, अहं न दृष्टवती, परन्तु तादृशमेव पतिः पत्युः. परन्तु सेनापतिः अस्ति चेत् हरिः इव भवति. अस्तु, राजा एव अस्ति, राज्ञः इति नास्ति. अस्तु
भगिनि, सेनापति एकवचनं षष्टिविभक्ति सेनापतेः द्विवचनं
पतेः सेना लैक् हरेः सेनापतेः सेनापत्योः सेनापतीनां लैक् दट्.
अस्तु, धन्यवादः.
अस्तु, अग्रे विष्णुमहोदय निर्मला भगिनी अभिनेता ऋकारान्तपदम् पितुः इव
अभिनेत्रोः
अभिनेतुः अभिनेत्रोः अभिनेतॄणां सम्यक् सो तादृशं भवति पितुः पित्रोः पितॄणाम् अभिनेतुः अभिनेत्रोः अभिनेतॄणां सम्यक् अस्तु चम्पा भगिनी साधुः उकारान्तपुल्लिङ्गपदम्
आं भगिनि साधोः साध्वोः साधूनां
सम्यक् साधोः साध्वोः साधूनां सम्यक् अस्तु
धन्यवादः भगिनि
धन्यवादः मङ्गला भगिनी इकारान्त स्त्रीलिङ्गपदम् एकवचने विकल्पद्वयं भवति युवतिः
युवतिः युवतेः युवत्योः युवतीनां
सम्यक् युवतेः अथवा युवत्याः अपि रूपं भवति रूपद्वयं युवतेः युवत्योः युवतीनाम् अथवा युवत्याः युवत्योः
युवत्योः युवतीनां
सम्यक् युवतीनां अस्तु
धन्यवादः भगिनि
धन्यवादः मङ्गला भगिनी नारी अस्तु मङ्गलभगिनी नास्ति इति अस्ति वा मङ्गलभगिनी ओ यु जस्ट् फिनिश्ड् क्षम्यताम् ऊर्मिला भगिनी क्षम्यतां भगिनि ऊर्मिला भगिनी
नार्याः नार्योः
सम्यक्
नार्योः नारीणां
सम्यक् नार्याः नार्योः नारीणां सम्यक् अस्तु अग्रे उमाकृष्णन् भगिनी धनुः
धनुः
अथवा वसुः वदतु वसुः अथवा रज्जुः किमपि
वसुः वस्वोः
वसोः वसोः वसूनाम् अथवा वस्वाः अपि भवति सम्यक् वस्वाः वस्वोः वसूनाम् अत्र वकारः भवति ओकारः वकारः ऊ अस्ति चेत् ओ भवति वा आल्सो भवति वोकारः इ अस्ति चेत् यकारः एकारः यो य भवति ए य ऊ अस्ति चेत् ओ व तत् स्मरन्तु अस्तु अग्रे वीणाबेन् भगिनी वधूः
वधूः वध्वः वध्वोः वधूनां
सम्यक् भगिनी वध्वाः वध्वोः वधूनाम् अत्र वा अस्ति वा आगच्छति वध्वाः वध्वोः वधूनां सम्यक् अस्तु अन्य कोऽपि अस्ति वा अस्तु सविता भगिनी दुहिता ऋकारान्त स्त्रीलिङ्गपदं दुहिता
दुहिता
मातुः
दुहित्रोः दुहित्री
दुहित्राणां दुहितॄणां सम्यक् दुहितुः दुहित्रोः दुहितॄणां सम्यक् दुहितॄणाम् अस्तु अम्ब इकारान्त नपुंसकलिङ्गपदं वारि
वारि वार्योः वारीना
सो अत्र नपुंसकलिङ्गे नकारः आगच्छति न
वारिणः वारिणोः वारीना
वारिणः वारिणोः वारीना सम्यक् वारिणः नकारः आगच्छति इकारः वा उकारः वा नकारः निश्चयेन आगच्छति अस्तु उकारान्तपदं वस्तु श्रीनिवासमहोदय वस्तु
वस्तुनः वस्तुनोः वस्तूनां
वस्तुनः वस्तुनोः वस्तूनां सम्यक् अस्तु अन्तिमं सागरि भगिनी ऋकारान्तपद धातृ इति अस्ति धातृ
धातुः धात्रोः धातॄणां
धातुः धात्रोः धातॄणाम् अस्तु इदानीं वयं गीतासोपानं प्रति गच्छामः एकवारं कृतवन्तः वयं रूपाणि अस्तु वयं कुत्र
The reason why we thought the Bhushanam thing was new was the last thing that we did was the seminar Aishwarasya Bhushanam, so that's the reason it is fresh in the memory. Just go to the previous thing, it is the Bhushanam one only.
Oh, I see. Oh, yeah, Aishwarasya Vibhushanam, correct.
That's the reason it was fresh in the memory, we thought because it just did it, okay.
Oh, astu. Avagata. Astu, dhanyavadaha. So, atra... चित्रम् अस्ति चित्रं किम् अस्ति चित्रे किम् अस्ति क्रोधः इति अस्ति अहङ्कारः अहङ्कारस्य फलं क्रोधः सो एकम् इति सङ्ख्यायाः पार्श्वे अहङ्कारः इति लिखितमस्ति अधः अहम् एतत् करोमि पुस्तकमस्ति चेत् पश्यन्तु तत्र बृहत् अस्ति सो अत्र अहङ्कारः इति लिखितम् अस्ति अहङ्कारस्य फलं क्रोधः अस्तु वा द्वितीयं जयश्री भगिनि करोति वा क्षमा इति
क्षमायाः फलं शान्ति
सम्यक् क्षमायाः फलं क्षान्ति क्षमा सो अतः याः सम्यक् भगिनि शारदा भगिनी उद्वेगः
उद्वेगस्य फलं सन्तापः
उद्वेगस्य फलं सन्तापः सम्यक् अस्तु अग्रे शारदा भगिनी
अहमपि वद
लता
भगिनी अर्थं वदतु कृपया
उद्वेगः इत्युक्ते अजिटेशन् लैक् यु नो रेस्ट्लेस्नेस्
सन्तापः अर्थं किं
सन्तापः वदतु अन्य कोऽपि वदति वा
सोरो
सोरो ग्रीफ् सम्यक् करेक्ट्
धन्यवादः
सारो ग्रीस् सम्यक् अस्तु अग्रिमं
लता भक्तिः भक्तेः फलं भगवदनुग्रहम्
आशा
ओके भक्तिः सा कृतवती अग्रिमम् अन्य कोऽपि करोतु अस्तु भक्तेः वदतु भगिनि पुनः वदतु भक्तेः
फलं भगवदनुग्रहः
अनुग्रहः एव सम्यक् अस्तु अग्रिमं विष्णुमहोदय
भगिनी भक्त्याः अपि वक्तुं शक्नुमः वा?
आमामां, भक्त्याः भक्तेः, सम्यक्,
भक्तिलिङ्गं खलु,
स्त्रीलिङ्गपदं, सम्यक्, स्त्रीलिङ्गमेव.
चतुर्थवान्.
आम्.
आशायाः फले, आशायाः फलं दुःखं.
दुःखं, सम्यक्, फलं फलं दुःखम्. आशा इत्युक्ते एक्स्पेक्टेशन्, इच्छा. इच्छा, इच्छा अपि वदन्ति खलु, न वा? कामः इत्यादि, कामः, इच्छा,
desire, 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 des
negative meaning of Asha. Isn't it, Bhagini?
Punaha vadavatu Bhagini, Kim?
Here, Asha is not taken in a positive way because Ashaya phalam dukkham. So it's more something like expectation or greed or something.
Desire. Desire looks more appropriate.
Actually. Desire.
Yeah. So actually the base is Asha. I mean the base is Icha, right? Yeah. Kama. When we have desire, we have expectations. Hello? Yeah, so it can be anything, Bhagini. Okay?
Raga,
so,
okay.
Yeah, Raga also, Raga. But purely Asha is expectation, yes. Asta. Asha's expectation. Asta. Dvesha. Dveshaha. Yata Mahode Idanim eva uktaman raga dveshaha. Idanim dveshaha. Asta. Agre Nirmala Bhagini.
Dveshasya alam manastapaha.
Manastapaha. Asta. Dveshaha ityukte?
Aversion.
Like hatred. It's the opposite of Icha. Raga. It's the opposite of Raga. Raga means we like something. Dvesha means we don't like something. Aversion. Dvesha. Manastapaha ityukte?
Misunderstanding.
Oh, evam va? Oh, okay. And then anguish, heartache.
Something related to mind.
What, Bhagini?
Something related to mind, feeling bad.
Mind. Ama.
Manaha
Shatru.
Shatrubhavaha. Samyak. Shatrubhavaha. Astu. Shuchita. Champa by Bhagini. Nastiva, Champa by Bhagini, Astu. Mangal Bhagini. Shuchita yaha phalam. Shuchitayah is purity or cleanliness. What is it, Bhagini?
Purity. Innocence.
Oh. Shuchita manashantihi. No, but Shuchita is number 7 kalu, so arogyam. So arogyam.
Shuchitayah phalam arogyam.
So that means it's cleanliness?
Cleanliness.
ओके
शुचितायाः फलम् आरोग्यम्
आरोग्यम् अस्तु शुचितायाः फलम् आरोग्यम्
अहम् अपि अस्ति भगिनि
अस्तु भगिनि चम्पावे भगिनि इदानीम् इदानीं वदतु अग्रिमं वदतु परोपकारः
परोपकारस्य फलं पुण्यं
पुण्यं पुण्यं सम्यक् परोपकारः सर्वे जानन्ति खलु परस्य उपकारं कुर्मः साहाय्यं कुर्मः हितकार्यं कुर्मः अस्तु अग्रे ऊर्मिला भगिनी
सेवायाः फलं मनः शान्तिः
मनश्शान्तिः सो अत्र मिलित्वा वदामः मनश्शान्तिः
मनश्शान्तिः
सम्यक् सेवायाः फलं मनश्शान्तिः सत्यं खलु सत्यम् उमाकृष्णन् भगिनी परिश्रमः
परिश्रमस्य फलं साफल्यं
सो अत्र अत्र प इति वदा फलं फलं
परिश्रमस्य फलं साफल्यं
सम्यक् साफल्यम् इत्युक्ते
सक्सेस्
फुल्फिल्मेण्ट् कण्टेण्ट्मेण्ट् तादृशं सक्सेस् साफल्यं सम्थिङ्ग् सम्यक् प्रश्नः अस्ति वा अस्तु नो चेत् अग्रे गच्छामः अस्तु पुनः तत्र अस्ति तत् कृतवन्तः वयं हस्तस्य भूषणम् इति पुण्यस्य
फलं
पुण्यस्य फलम् इच्छन्ति मानवाः फलं पुण्यं कर्तुं न इच्छन्ति फलं पापस्य न इच्छन्ति पापस्य फलं न इच्छन्ति फलं पापं कुर्वन्ति इति जनाः पुण्यस्य फलम् इच्छन्ति किन्तु पुण्यकार्याणि कर्तुं न इच्छन्ति पापस्य फलं न इच्छन्ति किन्तु प्रयत्नेन पापकार्याणि कुर्वन्ति यत्नतः प्रयत्नेन पापकार्याणि कुर्वन्ति अवगच्छन्ति वा सुभाषित अस्तु तर्हि अग्रे गच्छामः एतत् वयं कृतवन्तः पापानां शोधकं नित्यं परानन्दस्य बोधकं रोचकं चित्तवृत्तीना भजध्वं नाम मङ्गलम् भगवतः नाम पापानां शोधनं करोति शोधनम् इत्युक्ते इत्युक्ते एरेस् इति वदामः खलु मार्जनं करोति मार्जयति पापं गच्छति इति भगवतः नाम वदामः चेत् पापं गच्छति पापानां शोधनं करोति पापानां मार्जनं करोति पापाः गच्छन्ति पर आनन्दं बोधयति परानन्दं बोधयति आनन्दं बोधयति चित्तवृत्तीनां रोचकं भवति इत्युक्ते द स्टेट् आफ् मैण्ड् खलु चित्तवृत्ति रोचकं भवति रोचकं भवति हेपिनेस् चित्तवृत्तीनां रोचकं भवति अतः तत् सेवनीयं सेवनीयम् इत्युक्ते आचरणीयं किम् आचरणीयं भगवतः नाम वक्तव्यं भगवतः सो अत्र भवतः इव भवतः नाम किं भगवतः नाम भव सो अत्रापि भवत् भगवत् समानपदं भवत् शब्दः यथा अस्ति तथा एव भगवत् अपि. यथा भवान् इति वदामः तथा एव भगवान्. यथा भवतः नाम इति अस्ति अत्रापि भगवतः नाम. भगवतः नाम वदामः चेत् पापं गच्छति, आनन्दं परमानन्दं पर आनन्दं बोधयति, नाम बोधयति. अतः किं भवति? चित्तवृत्तीना रोचकं भवति. अवर् मैण्ड् विल् बिकम् जाय्फुल्.
रोचकम् इस् इण्टरेस्टिङ्ग् इसन्ट् इट् भगिनि?
एन्जाय्मेण्ट्, एन्जाय्मेण्ट् लैक् दट्. Our mind becomes something that we enjoy. Enjoying mind. We will have an enjoying mind.
Ananda.
Anandam. Anandam bhavati. Manasi anandam, anandam bhavati. Ataha tat sevaneyam. Bhagavataha nama vaktavyam iti. So, atra asti, shashti vibhakti rupani, लिखत इति. पुण्यस्य अन्य अन्य किम् अस्ति अत्र? सम्यक्, तावदेव. अस्तु, भगवतः अपि अस्तु, भगवतः सम्यक्. सो अत्र गृहपाठरूपेण कुर्वन्तु एतत्. गीता उक्त्वा, ऐ मीन् गीतां दृष्ट्वा वदन्तु. गीताश्लोकं परिशील्य एतेषां प्रश्नानाम् उत्तराणि एकेन शब्देन लिखत. उषा भगिनी वा? स्वागतं भगिनि. आम्, षष्टि एव. किमर्थम् इत्युक्ते भगवत् इति मूलशब्दः अस्ति. भवत् अपि समानमेव. भवतः यथा अस्ति भगवतः अपि तदा एव. भवतः नाम भगवतः नाम भगवतः इति षष्टिविभक्तिरूपम्. लिङ्गं पुल्लिङ्गं.
भगवतः भगवतौ भगवतः.
भगवतः भगवतोः भगवत् तां खलु, भवतां भगवतां तादृशं भवति. अस्तु, सो अग्रे गच्छामः. वयं जानीमः एव, पुरतः पृष्ठतः वामतः दक्षिणतः उपरि अधः अन्तः एतादृशान् पदानाम् आगच्छति चेत् षष्टिविभक्तिरूपं भवति. अस्तु, कोऽपि पठति वा? उमाकृष्णन् अभवत्, वीणाबेन् भगिनि पठति वा? योगी.
योगी शुचो देशे आसनं प्रतिष्ठापयति. तत् आसनं न अत्युन्नतं न वा अतिनीचं भवति. तस्य उपरि योगी कुशान् प्रसारयति. कुशानाम् उपरि कृष्णाजिनं स्थापयति. तदुपरि वस्त्रं स्थापयति. इदानीं वस्त्रस्य अधः कृष्णाजिनं, तस्य अधः कुशाः च भवन्ति. योगी तस्मिन् आसने उपविशति. सः दिशः न अवलोकते. वामतः दक्षिणतः पुरतः पृष्ठतः वापि दृष्टिं न प्रसारयति. मनः संशयं संशम्य
संयम्य
मनः संयम्य अन्तः वर्तमानम् आत्मानमेव ध्यायति.
अस्तु. पूर्वं वयं पठितवन्तः खलु शुचिता. शुचिता इत्युक्ते शुद्धता. सो अत्र औ क्षम्यतां शुचौ इति अस्ति, अतः सप्तमी विभक्तिरूपम्. देशे शुचौ इति विशेषणं, देश इति पदस्य विशेषणं. देशे इति सप्तमी विभक्तिरूपे अस्ति, अतः शुचौ अपि सप्तमी, लैक् रात्रिः रात्रौ. शुचि शुचि इति मूलरूपम्.
भगिनी शुचि अत्र शुचौ एकवचन सप्तमी एकवचन.
आम् आम्. देशे अपि एकवचनम् एव खलु, सो अतः विशेषणमपि तथा एव भवति. शुचि
शुचि च इकारान्त दीर्घ इव ह्रस्वै
ह्रस्व
ह्रस्वै. ओ अस्तु अस्तु. जस्ट् लैक् मति.
मति मति.
अस्तु अस्तु धन्यवादः.
लैक् रात्रिः इव रात्रि रात्रौ.
आम् आं धन्यवादः.
अस्तु. सो अत्र योगी इति अस्ति. योगिन् मूलरूपं योगिन् भवति. योगिन् विद्यार्थिन् एतादृशपदं. योगी इति प्रथमाविभक्तिरूपं, परन्तु नकारान्तपदं. योगी शुचौ दिशे दिशे ऐ मीन् देशे देशे इत्युक्ते कण्ट्री इति न स्थलं स्थलं. शुच् शुद्धस्थले इति वदामः. सो शुचौ देशे आसनं प्रतिष्ठापयति स्थापयति प्रतिस्थापयति प्रतिष्ठापयति इति भवति. स्थापनं करोति. लेङ्ग्वेज् इस् वेरि है लेङ्ग्वेज्. अस्तु. योगी शुचौ देशे आसनं प्रतिष्ठापयति. साधारणवाक्ये कथं कथं वदामः? ऋषिः शुद्धस्थाने आसनं
स्थापयति
स्थापयति स्थापयति. सो अत्र प्रतिष्ठापयति. योगी शुचौ देशे आसनं प्रतिष्ठापयति. तत् आसनं न प्रदेशे प्रदेशे अहं चेन्नै प्रदेशे वसामि. न्यूयार्क् प्रति प्रतिष् सो प्र अपि अस्ति प्रति अपि अस्ति प्रति स्थापयामि.
पवित्रस्थाने
उत्तमं. पवित्रस्थाने आसनं स्थापयामि. सम्यक्. पवित्रस्थाने आसनं स्थापयति. प्र अपि उपसर्गः अस्ति. प्रति अपि उपसर्गः अस्ति. अत्र प्रति मिलित्वा प्रति. प्रतिष्ठापयति. That is the thing with upasarga. It changes.
Okay.
Astu. Tat asanam na ati unnatam. Ati unnatam na ati neecham na. Ati neecham api na madhya bhage asti iti. Tat asanam tadrisham asti. Tasya upari asanam asti. Tasya upari yogi कुशान् प्रसारयति. कुशान् इत्युक्ते तृणं प्रसारयति. प्रसारयति इत्युक्ते to spread spread prasarayati kushala ma varta bagini
ati atyunnatam tatra sandhi asti ati adhik unnatam
nishchayena ati and unnatam ati plus o सो अत्र इ अस्ति चेत् य आगच्छति सो तत् स्मरन्तु सन्धिविषये तत् पश्यामः वयम् इ अस्ति चेत् य भवति य य प्लस् उ यु अत् अत् युन्नतम् एवं भवति यथा वयं मति मत्या मत्यो लैक् यकारः आगच्छति सर्वत्र तथा एव पश्यामः वयम् अस्तु सो अत्युन्नतं नास्ति अति नीचम् अपि नास्ति तस्य उपरि कुशान् प्रसारयति कुशानाम् उपरि कृष्णाजिनं स्थापयति कृष्णाजिनम् इत्युक्ते एतत् एतत् अस्ति खलु तत् डियर्स्किन् सो लैक् फर् इति वदामः खलु तत्
समथिङ्ग् धातु भगिनि कृष्ण वर्ड् इस् यूस्
मृगचर्म
कृष्ण इस् ब्लाक्
ब्लाक् फर् ब्लाक् फर्
यू सेइङ्ग् कृष्ण इस् जिनम् इस् फर्
Ajinam, together.
Okay.
Sandhya Bhagini is asking a question. No, I'm not able to hear you, Bhagini. No. Krishna Ajinam Sthapayati Tad Upari. So, if it is together, it is Tad Upari. So, if it is separate, Katam, Katam Vadamaha?
Iti
Upari.
Tasya Upari. Samyak. तद् तद् उपरि अथवा तस्य उपरि मिलित्वा वदामः चेत् समस्तपदं तद् उपरि पृथक् पृथक् वदामः तस्य उपरि वस्त्रं स्थापयति इदानीं वस्त्रस्य अधः कृष्णाजिनं तस्य अधः कुशाः च भवन्ति खलु योगे योगी तस्मिन् आसने तत् आसने तस्मिन् आसने इति सप्तमी तस्मिन् अपि सप्तमी तस्मिन् आसने उपविशति सः दिशः न अवलोकते सो अत्र अपि दिश् इति मूलरूपम् अस्ति दिक् इति दिशः न अवलोकते दिक् दिशौ दिशः अस्तु वा दिक् दिशौ दिशः दिश् इति मूलरूपं यथा योगिन् इति नकारान्तपदं दिश् इति षकारान्तपदं दिक् दिशौ दिशः दिशः मीन्स् हि डजन्ट् लुक् इन् एनी डैरेक्षन् इति बहुवचनरूपं दिशः बहुवचनरूपं सः दिशः न अवलोकते अवलोकते ए इति वदामः चेत् आत्मनेपदिरूपं धातु इति वदामः चेत् द्विधा भवति एकमस्ति तिङन्ति तीति इति भवति अन्यविध अस्ति ते ते अवलोकते वन्दते ऊहते भुङ्क्ते ते ते इति भवति ति इति वदामः चेत् परस्मैपदिपदिरूपं परस्मैपदिरूपम् इति वदामः एतदेव वयं जानीमः इतोपि पर्यन्तं परिचयः वि नो दिस् परस्मैपदि सो ते इति वदामः चेत् आत्मनेपदि 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 ते इति भवति अवलोकते इत्युक्ते न पश्यति सः दिशः न पश्यति इति अर्थे अस्ति. विषः न पश्यति. अस्तु अग्रे. दिशः न पश्यति वामतः दक्षिणतः पुरतः पृष्ठतः वा अपि. सो अत्र वा अपि दृष्टवा अपि अपि दृष्टिं न प्रसारयति. सो अत्र पश्यन्तु कुशान् प्रसारयति स्प्रेड् द कुशान् सो फिजिकल् स्प्रेडिङ्ग् सो अत्र दृष्टिं न प्रसारयति. दृष्टिम् इत्युक्ते हिस् लुक्स् हि डजन्ट् लेट् हिस् लुक्स् गो एव्रिवेर् प्रसारयति. समानपदं किञ्चित् किञ्चित् भिन्न अर्थं भवति. वदतु महोदय.
इन् दिस् प्लेस् इस् वा यूस्ड् इन्स्टेड् आफ् च because it's unright, all the directions is mentioned out here.
No.
Normal
here,
words,
no, here va means or. Like vamatah va, dakshinatah va, puratah va, prishnatah va.
And. Okay. Va is or, not and. Cha is and. No. Okay.
Cha is and, correct.
Confusion, sorry.
I'm glad you're speaking up. No problem. So, atra drishtim na prasarayati. He doesn't let his looks go here and there. Iti. Manaha. Atra api manas shabda. So we are getting into a lot of new things here. Short paragraph, but you know, filled with so much punch. Iti vadamakala tadasham. So atra manas. This is a sakaranta padam. Sa. Napum sakalinga padam. So, manaha, manasi, manansi. That's how the Pratama Vibhakti Rupam goes. So, atra manaha. Tatra manaha, sanyamya. Sanyamya iti yukte?
Restrained,
focused, controlled.
Indriya.
Mahodaya?
Indriya, nigraha.
Indriya nigraha samyak. Indriya means all our sense organs, right? Sense organs including the manaha. Indriyam nigrahanam kritva.
Atra sanyamya is a yabantru, va?
Yabantru, yes. Yep. Sanyamya antaha. Vartamanam. Antaha means where antaha? Inside our mind. Vartamanam. So, atra api atmane padirupam. Vartate. Vartate means asti. Asti. Vartamanam stitam. So, if you want to use the parasmai padirupam, stitam. Antaha stitam atmanameva jayate. Antaha stitam atmanam eva dhyayati. He'll do meditating only on the atma, which is inside the mind. So first he establishes the asanam and then he starts the dhyana. Avagachanti va?
भगिनी वर्तमानं भवती वदति अहम् उक्तवती अहं सम्यक् न जानामि वर्तमानं.
सो अत्र अस्ति इति पदमस्ति खलु. अस्ति अस्ति इति परस्मैपदि धातु लैक् दिस्ति. सो वर्तते इति आत्मनेपदि धातु. दे बोथ् हाव् द सेम् मीनिङ्ग्. ఉదాహరణం అవలోకతే ఈజ్ ఈక్వల్ టు పశ్యతి. సేమ్ మీనింగ్. సో వెన్ వి సే అస్తి, హౌ డు వి సే ద వన్ దట్ ఈస్ ఓవర్ దేర్? ఉదాహరణార్థం మమ పురతః యత్ అస్తి తత్ ఐ కెన్ సే. ఆర్ ఐ కెన్ సే మమ పురతః స్థితం పుస్తకం.
So vartamanam atra
is equal to stitam vartamanam.
Are you saying vartamanam is
parashmentari
or
it's a kriya pad?
No, it is actually something that is derived from atmanepadi dhatu.
Vartamanam.
Vartamana kala iti vadama kalu, that is existing right now. Vartamana kala. So it comes from vartate. Vartate is an atmanepadi dhatu. From there we get vartamanam. Vartamanam, so it is a dvitiya vibhakti rupam. Supposing I want to say it in the parasmaipadi dhatu, I will say manaha sanyamya antaha stitam atmanam eva dhyayati.
What is the Moola Shabdam for Vartamanam?
Vartate. Vartamana. Vartamana means that is happening right now. Vartamana. Vartamanam Atmana. Yes, Bhagini?
Okay, after preparing the asanam, now he starts to meditate. Now he has prepared for himself for meditation,
but here he is not talking about now iti nasti.
Oh, then vartamanam is not now.
No, here vartamanam means stitam, the atmana which is inside himself, inside his I don't know where atma is, but inside
prabhute.
But here he is talking about antaha, it is within him.
Vartate iti pravrutte.
Vartate pravrutte astu.
Patra atman and vartaman vishesha visheshanasya sabandhva.
Ama nischena atmanam dhyayate kidrisha atmanam. Vartamanam Atmanam. Vartamanam means that exists. Vartamanam. Vartamanam Atmanam. Kutra Vartamanam. Antaha Vartamanam Atmanam Dhyayate.
Dhanavada Bhagini.
So and then for the Sanyamya. Kim Kritva Sanyamya. Antaha Vartamanam Atmanam Eva Dhyayate. Kim samyamya, manaha samyamya. Dhyayati itinte,
Dhyanam karoti.
So, some verbs are both parasmaipadi as well as atmanepadi. So, we call them ubhayapadi. Ubhayapadi dhatu. Ubhayapadi dhatu. So we'll read the paragraph one more time and then we'll close the class. Okay, one more minute asti.
Yogini atha prishta taste meaning the number 11. The title of that lesson.
Atha means now prishtaha te. Prishtataha te. Okay, we'll do this the next time. Samayaha abhavat. Because that is a longer explanation, Bhagini. I forgot to do that. So we'll do the paragraph now and then we will stop the class. Okay, danyavadaha. Yogi shuchau deshe asanam pratishtapayate. Tat asanam na at unnatam na va ati nicham bhavate. तस्य उपरि योगी कुशान् प्रसारयति कुशानां सो अत्रापि षष्ठी बहुवचनं कुशानां उपरि सो व्हेनेवर वी यूज वर्ड्स लाइक पृष्ठतः दक्षिणतः उपरि षष्ठी विभक्तिः भवति कुशानां उपरि कृष्णाजिनं स्थापयति तद् उपरि अथवा तस्य उपरि वस्त्रं स्थापयति इदानीं वस्त्रस्य अधः कृष्णाजिनं तस्य अधः कुशाः च भवन्ति योगी तस्मिन् आसने उपविशति सः दिशः न अवलोकते वामतः दक्षिणतः पुरतः पृष्ठतः वा अपि दृष्टिं न प्रसारयति मनः संयम्य अन्तः वर्तमानम् आत्मानमेव ध्यायते इति अस्तु अग्रिमवर्गे अग्रे पश्यामः इदानीं शान्तिमन्त्रम् उक्त्वा ऊर्मिला भगिनी प्रश्नः अस्ति वा
न अहं सम्यक् अवगच्छामि धन्यवादः
अस्तु अस्तु धन्यवादः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखं भवेत् शान्ति
धन्यवादः भगिनी
धन्यवादः
हरिः ओम्